अथ कृष्णस्तोत्रम् ज्वर उवाच नमामि त्वानन्तशक्तिं परेशं सर्वात्मानं केवलं व्याप्तिमात्रम् विश्वोत्पत्तिस्थानसंलोदहेतुं यत्तद्ब्रह्म ब्रह्मलिङ्गं प्रशान्तम् कालो दैवं कर्म जीवस्वभावा द्रव्यं क्षेत्रं प्राण आत्मा विकार तत्संघातो बीजरोह प्रवाहस्त्वन्मायैषा तन्निषेधं प्रपद्ये नानाभावैर्लीलयैवोपपन्नैर्देवान् साधून् लोकसेतुन् बिभर्षि हंस्युन्मार्गान् हिंसया वर्तमानान् जन्मैतत्ते भारहाराय भूमेः तप्तोऽहं ते तेजसा दुःसहेन शान्तो क्रीणात्युल्बणेन ज्वरेण तावत्तापो देहिनां तेऽङ्घ्रिमूलं नो सेवेरन्यावदाशानुबद्धाः श्रीभगवानुवाच त्रिशिरस्ते प्रसन्नोऽस्मि व्येतुं ते मज्ज्वराद्भयम् यो नो स्मरति संवादं तस्य त्वन्न भवेद्भयम् इत्युक्तो च्युतमानस्य गतो माहेश्वरो ज्वरः बाणस्तुरथमारूढ प्रागाद्योत्स्यञ्जनार्दनम् इति श्रीमद्भागवते ज्वरकृतं कृष्णस्तोत्रं सम्पूर्णम्।